ओम हिरण्यवर्णाम हरिणीम सुवर्ण रजतस्रजाम चंद्राम हिरण्मयीम लक्ष्मीम जातवेदो महावह ताम महावह जातवेदो लक्ष्मीमनपगामिनीम यस्याम हिरण्यं विन्देयं गामश्वं पुरुषानहम् अश्वपूर्वामृतमध्यां हस्तिनाथ प्रभोदिनीं श्रियं देवीमुपह्मये श्रीमादेवीर्जुषतां तां सोऽस्मितां हिरण्यप्राकारमात्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपह्मये श्रियम् चंद्राप्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीं हीं शरणमहं प्रपद्ये लक्ष्मीर्मे नश्यतां त्वा वृणे आदित्यवर्णे तपसोदि जातो वनस्पतिस्तव वृक्षोत भिल्वः तस्य फलानि तपसानुधन्तु मायातरायाश्च बाह्या लक्ष्मीः उपैतु मां देवसः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिं वृद्धिं दधातु मे क्षिप्तिपाशामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् अभूतिमसवृद्धिं च सर्वां निर्णुत मे गृहात् गन्धद्वारा दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरेकं सर्वभूतानां तामिहोपह्वजे श्रियं मनसः काममापूतिं पाचः सत्यमशीमहि पशूनां रूपमन्यस्य मयि श्रीं श्रयतां यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमां श्रियं वासय मे कुले मातरं पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्ले दवस मे गृहे निच देवी मातरकं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावहम् आत्रां यक्करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो महावहम् तां महावह जातवेदो लक्ष्मीमनपकामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्योष्मान् विन्देयं पुरुषानहम् महादेवे च विद्महे विष्णुपत्ने च धीमहि तन्नो लक्ष्मिप्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः।